नवग्रह मन्त्राः ॐ आसक्तेन रजसा वर्तमानानि भेषयन्नमृतम् मत्यम् च हिरण्ययेन सविता रथेन देवो यादिभुवनानि पश्यन् अग्निम् दोतम् वृणीमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य सुकृतम् येषामेश पशुपतः पशूनाम् चतुष्पदा कृतचद्विपदाः निष्क्रेतायम् यज्ञियम् भागमे दुरायस्पोषायजमानस्य सन्तो अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय नमः अग्निर्मार्थाधिपत्वकुत्पतिपृथिव्या अयम् अपागम् रेतागम् सजिन्वते श्योनापृथिविभवानक्षरा निवेशने यच्छानः सर्वसप्रधाः क्षेत्रस्य भजना वयगम् हितेन वजयामसे रामः संवर्णयत्वादृशे हरिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय नमः प्रवः शुक्राय भानवे भरद्वजम् भव्यम् मतिम् चाग्नये सुपोदम् यो देव्यानि मानुषा जनागश्यन्तर्विश्वानि विद्मनाचिकाति इन्द्राणि मासुनारिषु सुभग्ने महवश्रवम् न ह्यस्यापरञ्जनजरसामरते पतिः इन्द्रम् वा विश्वतस्परिह वामहे जनेभ्यः अस्माकमस्तु केवलः हरिदेवता प्रत्यधिदेवता सहिताय भगवते शुक्राय नमः आप्यायस्व समेतुते विश्वतः स्वामवृत्ययम् भवावाजस्व सङ्गते अप्सुमे सोम अब्रवेदम् दर्विश्वानिपेषजा अग्निम् च विश्वसम्भवश्च विश्वभेरहेः गौरेमिमायस लीलानि चक्षत्ये कपते द्युपते सा चतुष्पते अष्टापदे नवपदे बभूविषे सहस्राज्जरामरमे व्योमन् अतिदेवता प्रत्यतिदेवता सहिताय सोमाय नमः उद्भुद्यस्ताग्ने प्रतिजागृत्येन मिट्टा भोर्ते संसृते धामिजम् च पुनक्रण्वग्स्वामितरञ्जुमानमन्वादागुंसेत्यगितन्तु मेताम् इदम् विष्णुर्विचक्रमे त्रेधानि दधे पदम् समानवस्य वागुंसुरे विष्णानदानमसि विष्णा वृष्णमसि विष्णाश्च त्रे स्वविष्णाश्चोरसि विष्णा द्रुपमसि वेष्णवमसि विष्णवे त्वा अतिदेवता प्रत्यतिदेवता सहिताय बुधाय नमः बृहस्पते अधियतर्योर्हाद्युमग्निभाजिक्रतुमज्जनेषु यद्येत यच्छमसत्त्वप्रजा तदस्मासुद्रविनन्देहि चित्राम् इन्द्रमरुत्वरिह वाहि सोमय्यताशार्याते अभिभस्वतस्य तव प्रणेजे तपशोरसम् मन्नापि वासन्ति कवयस्तु यज्ञाः ब्रह्मयज्ञानम् प्रसमम् पुरस्ताद्विषे मदस्वरुजो वेणावः स बुद्धया उपमास्य विष्टास्तदश्चयो निवसतश्च विमः हरिदेवता प्रत्यतिदेवता निहिताय बृहस्पतये नमः स्वन्ना देवीरभिट्टया भवन्तु वेदये श्रय्यारविश्वमन्दुरः प्रजापतेन त्वदेताञ्जन्या विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्मास्तु वयज्ञस्यामपतयो येनाम् यमय्यमप्रस्तरमायसेनाञ्जुरभिपितृभिः संविधानः आत्मान्द्राज्ञविषस्तावहन्द्रे नारायणि हविषामादयस्व अतिदेवता प्रत्यतिदेवता जिहिताय सनेश्चराय नमः कयानश्चित्रावृतोते सदामृतः सखा कया सजिष्टया मृता आयङ्गप्रश्निरग्रभेदसनन्मातरम् पुनः पितरम् च प्रयान् सुवः यत्ते देवेन निरनिराभबन्धतामग्रे वास्त्वविधर्त्रम् इदम् वेदद्यम्यायुषानमध्या तथा जीवपितुमध्यप्रमुक्तः अतिदेवता प्रत्यतिदेवता सहिताय राहवे नमः वेदम् कृण्वन्न केतवेशो मर्या अपेशसे समुषद्भिरदायधा ब्रह्मा देवानां पदवे कवेनां सर्वप्राणां महिषा मृगानां सेना रुद्रानागस्वतगर्वणा नागुं सोमः पवित्रमत्ये दिलेभन्ने सचित्र चित्रं चिदयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधा चन्द्रं रयं पुरवेरं बृहन्तं चन्द्रचन्द्राभिर्गृणते युवस्व अधिदेवता प्रत्यधिदेवता सहिताय केतवे नमः।